सोद्भुतः कुञ्जरवक्त्रमातुः यो हन्ति बिम्बाधर लङ्घनेऽपि व्यक्तालसत्त्वो हरितां तमांसि सदा चन्द्रकलाकलापि सर्वेषु भूतेषु दयां दधानः गौरी कटाक्षो रमणो मुनिर्वा मदीयमज्ञानम् अपाकरोतु कृपावलोको नगकन्यकायाः करोतु मे निर्मलम् अन्तरङ्गम् येनाङ्कितः शङ्कर एकतत्त्वं विश्वं लुलोके जगते जगौ च कालीकटाक्षो वचनानि मह्यं ददातु मोचा मदमोचनानि यत्पातपूतं रघुवंशकारं नराकृतिं प्राहुः अजस्य नारी युष्माकम् अग्र्यां वितनोतु वाणी येणीदृगेशा गिरिशस्य योषा यस्याः कटाक्षस्य विसारि वीर्यं गिरामयं हि विविधो विलासः नगात्मजायाः करुणोर्मिशाली दृगन्तसन्तान धुनी प्रवाहः भीष्मेण तप्तान् भवनामकेन ग्रीष्मेण युष्मान् शिशिरीकरोतु अजस्रमार्द्रादर्ययान्तरङ्गे यथा भवो निम्नगयोत्तमाङ्गे सन्तापशान्तिं भवसुन्दरी मे करोतु शीतेन विलोकितेन ईश्वर एव सत्ता पतिव्रता साम्यमिता तवेक्षा कुलाचलाधीश्वर कन्यके मे संहारमं भूवितर्विधत्ता शर्वस्य रामे नियमेन हीना श्यामा तवेक्षा गणिकाङ्गनेव नीचेऽपि मध्ये निपतत्यनर्घा बिभर्तिना षोडश यः सुवर्णान् पद्मायताक्षी क्षितिधारि कन्ये कटाक्षनामा तव कालसर्पः यं सन्दशत्येष जगत्समस्तं विस्मृत्य चाहो न दधाति मोहम् ईषद्विषाशैलमहेन्द्रकन्ये करोति मैत्रीं विषम् आयुधेन प्रभाषते पातकीनश्च पक्षे कुतः कटाक्षो न तवाम्बमुग्धः कृपान्वितः कर्णः समीपचारी श्रीमान् सदा पुण्यजनानुकूलः साम्यं कुरूणामधिपस्य शम्भोः प्राणप्रियेति भजते कटाक्षः कस्थोऽपि न धर्मवैरी कृष्णोऽपि मातर् न कुलं न पाति शीतोऽपि सन्दीपयति स्मराग्निं हरस्य ते शैलसुते कटाक्षः अयं कटाक्षस्तव तोयवाहः कारुण्यकाले परिजृम्भमाणः गृहेषु लीनान् सुखिनो विहाय निराश्रयान् सिञ्चति विश्वमातः। कस्यापि वाचा वपुषा बलेन समस्य सर्वैरपि यन्निदेशाः अम्भोधिवेलास्वपि न स्खलन्ति शम्भोः प्रियेयं तव दृक्प्रसादः। द्वारेषु तेषां विचरन्ति शूराः सौधेषु सारङ्ग दृशस्तरुण्यः प्रगल्भवाचः कवयः सभासु शर्वाणि तेयेषु कृपाकटाक्षः। यत्राम्बते कोऽपि कटाक्षलेशः स दुर्जयः सङ्गरसीम्निशूरः पूर्वं दिवं पूरयति द्विषद्भिः ततोषयोभिर्भुवमिन्दुगौरैः। यं तारकाकान्तकलापकान्ते न लोकसे कोऽपि न लोकते तं यं लोकसे तेन विलोकितोऽपि श्रियं समृद्धां समुपैति लोकः। सुधां हसन्ति मधु चाक्षिपन्ति यशोहरन्ति वनिताधरस्य परिष्करोत्यस्य कविपधारा मुखं हर प्रेयसी लोकसेयम्। सर्वेन्द्रियानन्दकरी पुरन्ध्री विद्यानवद्या विपुला च लक्ष्मीः इयं त्रिरत्नी पुरुषस्य यस्य दुर्गे त्वया दृष्टम् इमं तु विद्मः। क्षिपसि अद्रिसुते कटाक्षान् कैलासकान्तारमहीरुहेषु इतः किरेशत्तव नास्ति हानिः सिद्ध्यत्यभीष्टं च समस्तमस्य। चीताचलाधीश कुमारिशीतः संरक्षणे संश्रितमानवानाम् दुर्धर्ष दुष्टासुरमर्दनेषु नितान्तमुष्णश्च तवावलोकः। रुषासमेतं विदधाति नाशं करोति पोषं कृपया सनाथम् अम्बौषधस्येव तवेक्षितस्य योगस्य भेदेन गुणस्य भेदः। नाशाय तुल्योद्धतः कामलोभ क्रोधत्रिदोषस्य भवामयस्य शिवप्रिये वीक्षित भेषजं ते क्रीणानि भक्त्या वद भोः कियत्या। अभिष्टुतां चारणसिद्धसङ्खै स्त्रिष्टुविशेषापि मर्त्यसूनोः कृपाकटाक्षैर्विनतान् पुनानां कपर्दिनः सम्मदयन्तु कान्त।